ओम नमो भगवते वासुदेवाय। अथ पञ्चमोऽध्यायः। नारद उवाच, पौरोहित्याय भगवान् वृतः काव्यः किलासुरैः। षण्डामर्कौ सुतौ तस्य दैत्यराजगृहान्तिके। तौ राज्ञा प्रापितं बालं प्रह्रादं नयकोविदं। पाठयामास तु पाठ्यानन्यांश्चासुरबालकान्। यत्तत्र गुरुणा प्रोक्तं शुश्रुवेनुपपाठ च। न साधु मनसा मेने स्वपरा सद्ग्रहाश्रयम्। एकदा सुरराट्पुत्रमङ्कमारोप्य पाण्डव पप्रच्छ कथ्यतां वत्स मन्यते साधु यद्भवान्। प्रह्राद उवाच, तत्साधु मन्ये सुरवर्य देहिनां सदा समुद्विग्नधियाम सद्ग्रहात्। हित्वात्मपातं गृहमन्धकूपं वनं गतो यद्धरिमाश्रयेत। नारद उवाच, श्रुत्वा पुत्रगिरो दैत्यः परपक्षसमाहिताः। जहास बुद्धिर्बालानां भिद्यते परबुद्धिभिः। सम्यग् विधार्यतां बालो गुरुगेहे द्विजातिभिः। विष्णुपक्षैः प्रतिच्छन्नैर्न भिद्येतास्य धीर्यथा। गृहमानीतमाहूय प्रह्रादं दैत्ययाजकाः। प्रशस्य श्लक्ष्णया वाचा समपृच्छं तथामभिः। वत्सप्रह्राद भद्रं ते सत्यं कथय मामृषा। बालानतिकुतस्तुभ्यमेष बुद्धिविपर्ययः। बुद्धिभेदः परकृत उताहो ते स्वतो भवत्। भण्यतां श्रोतुकामानां गुरूणां कुलनन्दन। प्रह्राद उवाच, स्वपरश्चेत्य सद्ग्राहः पुंसां यन्मायया कृतः। विमोहितधियां दृष्टस्तस्मै भगवते नमः। स यदानुव्रतः पुंसां पशुबुद्धिर्विभिद्यते। अन्य एष तथान्योऽहमिति भेदगता सती। स एष आत्मा स्वपरेत्य बुद्धिभिर्दुरत्ययानुक्रमणो निरूप्यते। मुह्यन्ति यद्वर्त्मनिवेदवादिनो ब्रह्मादयो येष भिनत्ति मे मतिम्। यथा भ्राम्यत्ययो ब्रह्मन् स्वयमाकर्षसन्निधौ तथा मे भिद्यते चेतश्चक्रपाणेर्यदृच्छया। नारद उवाच, एतावद्ब्राह्मणा योक्त्वा विरराम महामतिः। तं निर्भट्स्याथ कुपितः स दीनो राजसेवकः। आनीयतामरे वेत्रमस्माकमयशस्करः। कुलाङ्गारस्य दुर्बुद्धे चतुर्थोऽस्योदितोदमः। दैतेयचन्दनवने जातोऽयं कण्टकद्रुमः। यन्मूलोन्मूलपरशोर्विष्णोर्नालायतोर्भकः। इति तं विविधोपायैर्भीषयंस्तर्जनादिभिः। प्रह्रादं ग्राहयामास त्रिवर्गस्योपपादनम्। तत एनं गुरुर्ज्ञात्वा ज्ञातज्ञेयचतुष्टयम्। दैत्येन्द्रं दर्शयामास मातृमृष्टमलङ्कृतम्। पादयोः पतितं बालं प्रतिनन्द्याशिषासुरः। परिष्वज्य चिरं दोर्भ्यां परमामापनिर्वृतिम्। आरोप्याङ्कमवघ्राय मूर्धन्यश्रुकलाम्बुभिः। आसिञ्चन् विकसद्वक्त्रमिदमाह युधिष्ठिर। हिरण्यकशिपुरुवाच, प्रह्रादानुच्यतां तात स्वधीतं किञ्चिदुत्तमम्। कालेनैतावता युष्मन् यदशिक्षद्गुरोर्भवान्। प्रह्राद उवाच, श्रवणं कीर्तनं विष्णोः स्मरणं पादसेवनम्। अर्चनं वन्दनं दास्यं सख्यमात्मनिवेदनम्। इति पुंसार्पिता विष्णौ भक्तिश्चेन्नवलक्षणा। क्रियते भगवत्यद्धा तन्मन्येऽधीतमुत्तमम्। निशम्यैतत्सुतवचो हिरण्यकशिपुस्तदा। गुरुपुत्रमुवाचेदं रुषा प्रस्फुरिताधरः। ब्रह्मबन्धो किमेतत्ते विपक्षं शयता सता। असारं ग्राहितो बालो मामनादृत्य दुर्मते। सन्ति यसाधवो लोके दुर्मैत्राश्छद्मवेषिणः। तेषामुदेत्यघं काले रोगः पातकिनामिव। गुरुपुत्र उवाच, न मत्प्रणीतं न परप्रणीतं सुतो वदत्येष तवेन्द्रशत्रो। नैसर्गिकीयं मतिरस्य राजन्नियच्छ मन्यं कददास्ममानः। नारद उवाच, गुरुणैवं प्रतिप्रोक्तो भूय आह सुरः सुतं। न चेद् गुरुमुखीयं ते कुतो भद्रा सती मतिः। प्रह्राद उवाच, मतिर्न कृष्णे परतस्वतो वा मिथोऽभिपद्येत गृहव्रतानाम्। अदान्तगोभिर्विशतां तमिश्रं पुनः पुनश्चर्वितचर्वणानाम्। न ते विदुस्वार्थगतिं हि विष्णुं दुराशया ये बहिरर्थमानिनः। अन्धा यथान्धैरुपनीयमाना वाचीषतन्त्या मृदां निबद्धाः। नैषां मतिस्तावदुरुक्रमाङ्घ्रिं स्पृशत्यनर्थापगमो यदर्थः। महीयसां पादरजोऽभिषेकं निष्किञ्चनानां न वृणीत यावत्। इत्युक्त्वपरतं पुत्रं हिरण्यकशिपूरुषा अन्धीकृतात्मा स्वोत्सङ्गान् निरस्यतमहीतले। आहामर्षरुषा विष्टः कषायी भूतलोचनः। वध्यतामाश्वयं वध्यो निःसारयत नैरृताः। अयम् मे भ्रातृः सोऽयम् हित्वा स्वान् सुहृदो धमः पितृव्यहन्तुर्यः पादौ विष्णोर्दासवदर्चति विष्णोर्वासाद्वसौ किम् नु करिष्यत्यसमञ्जसः सौहृदम् दुस्त्यजम् पित्रोरहाद्यः पञ्चहायनः परोऽप्यपत्यम् हितकृद्यथौषधम् स्वदेहजोऽप्यामयवत्सुतो हितः छिन्द्यात् तदङ्गम् यदुतात्मनो हितम् शेषम् सुखम् जीवति यद्विवर्जनात् सर्वैरुपायैर्हन्तव्यः सम्भोजशयनासनैः सुहृल्लिङ्गधर शत्रुर्मुनेर्दुष्टमिवेन्द्रियम् नैरृतास्ते समादिष्टा भर्त्रा वै शूलपाणयः तिग्मदंष्ट्रकरालास्यास्ताम्रस्मसृशिरोरुहाः नदन्तो भैरवान्नादांश्छिन्दिभिन्धीति वादिनः आसीनम् चाहनन् शूलैः प्रह्लादम् सर्वमर्मसु परे ब्रह्मणि निर्देश्ये भगवत्यखिलात्मनि युक्तात्मन्यफला आसन्न पुण्यस्येव सत्क्रियाः प्रयासे पहते तस्मिन् दैत्येन्द्रः परिशङ्कितः चकार तद्वधोपायान् निर्बन्धेन युधिष्ठिर दिग्गजैर्दन्तशूकैश्च अभिचारावपातनैः मायाभिः सन्निरोधैश्च गरदानैरभोजनैः हिमवायुवग्निसलिलैः पर्वताक्रमणैरपि न शशाक यदा हन्तुमपापमसुरः सुतम् चिन्ताम् दीर्घतमाम् प्राप्तस्तत्कर्तुम् नाभ्यपद्यत एष मे बह्वसाधूक्तो वधोपायाश्च निर्मिताः तैस्तैर्द्रोहैरसद्धर्मैर्मुक्तः स्वेनैव तेजसा वर्तमानो विदूरे वै बालोऽप्यजडधीरयम् न विस्मरति मे नार्यम् शुनश्चेपैव प्रभुः अप्रमेयानुभावोऽयमकुतश्चिद्भयोमरः नूनमेतद्विरोधेन मृत्युर्मे भविता न वा इति तम् चिन्तया किञ्चिन्म्लानश्रियमधोमुखम् सण्डामर्कावौशनसौ विविक्त इति होचतुः जितम् त्वयैकेन जगत्त्रयम् भ्रुवोर्विजृम्भणत्रश्च समस्तधिष्ण्यपम् न तस्य चिन्त्यम् तव नाथ चक्ष्महे न वै शिशूनाम् गुणदोषयोः पदम् इमम् तु पाशैर्वरुणस्य बद्ध्वा निधेहि भीतो न पलायते यथा बुद्धिश्च पुंसो वयसार्यसेवया यावद्गुरुर्भार्गवागमिष्यति तथेति गुरुपुत्रोक्तमनुज्ञायेदमब्रवीत् धर्मायस्योपदेष्टव्या राज्ञाम् ये गृहमेधिनाम् धर्ममर्थम् च कामम् च नितराम् चानुपूर्वशः प्रह्रादायोचतु राजन् प्रश्रितावनताय च यथा त्रिवर्गम् गुरुभिरात्मने उपशिक्षितम् न साधु मेने तच्छिक्षाम् द्वन्द्वारामोपवर्णिताम् यदा आचार्यः परावृत्तो गृहमेधीयकर्मसु वयस्यैर्बालकैस्तत्र सोपहूतः कृतक्षणैः अथ तान् श्लक्ष्णया वाचा प्रत्याहूय महाबुधः उवाच विद्वांस्तन्निष्ठाम् कृपया प्रहसन्निव ते तु तद्गौरवात् सर्वे त्यक्तक्रीडापरिच्छदाः बालान् दूषितधियो द्वन्द्वारामेरिते हितैः पर्युपासत राजेन्द्र तन्यस्य हृदये क्षणाः तानाः करुणो मैत्रो महाभागवतो सुरः ॐ स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्याम् संहितायाम् सप्तमस्कन्धे प्रह्लादानुचरिते पञ्चमोऽध्यायः श्रीकृष्णार्पणमस्तु नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमाम् यथा त्वच्चरणाम् भोजे रतिः स्यादनपायिनी।